భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే. భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే. సంప్రాప్తే సన్నిహితే కాలే నహి నహి రక్షతి దుగ్రం కరణే.
భజ గోవిందం భజ గోవిందం
జహీ ధనాగమతృష్ణా కురు సద్బుద్ధిం మనసి వితృష్ణా. ఎల్లభసే నిజ కర్మోపాతం విత్తం తేన వినోదయచేతం.
భజ గోవిందం భజ గోవిందం
స్తన భర నాభీదేశం దృష్ట్వా మాగా మోహావేశం. ఏతన్మాంస వసాది వికారం మనసి విచింతయ వారం వారం.
భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే.
నళినీ దళగత జలమతి తరళం తద్వజీవితం అతిశయ చపలం. పృథివ్యాధ్యభిమానగ్రస్తం లోకం శోకహతం చ సమస్తం.
భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే.
సక్తః తావన్ నిజ పరివారోరతః. పశ్చాజీవతి జర్జర దేహే వార్తాం కోపి న పృచ్చతి గేహే.
భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే.
సతి దేహే తావత్ పృచ్చతి కుశలం గేహే. कतवति वायो देहापाये भार्या बेभ्यति तस्मिन् काये
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते
तरुणस्तावत् तरुणी सतः वृद्धस्तावत् चिन्ता सतः परमे ब्रह्मणि कोऽपि सतः
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते
कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः कस्य त्वं कः कुतायातः तत्त्वं चिन्तय तदिह भ्रातः
भज गोविन्दम् भज गोविन्दम् गोविन्दम्
सत्सङ्गत्वे निसङ्गत्वं निसङ्गत्वे निर्मोहत्वं निर्मोहत्वे निश्चलतत्वं निश्चलतत्वे जीवन्मुक्तिः
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज
मा कुरु धन जन यौवन गर्वं हरति निमेषात् काल सर्वं मायामयमिदम् अखिलं बुद्ध्वा ब्रह्मपदं त्वं प्रविश विदित्वा
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते
यामि
सायं प्रातः शिशिरवसन्तौ पुनरायातः कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चति आशावायुः
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते
चिन्ता वातुल किं तव नास्ति नियन्ता त्रिजगति सज्जन सङ्गतिरेका भवति भवानव तरणेनौका
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज
केशः काषायाम्बर बहुकृतवेषः पश्यन्नपि चन पश्यति मूढः ह्युदर निमित्त बहुकृतवेषः
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज
दशनविहीनं जातं तुण्डं वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चति आशापिण्डम्
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते
चुबुकसम् अर्पितजानुः करतलभिक्षः तरुतलवासः तदपि न मुञ्चति आशापाशः
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते
परिपालनम् अथवा दानम् ज्ञानविहीनः सर्वमतेन भजति न मुक्तिं जन्मशतेन
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज
मन्दिरतरु मूलनिवासः शय्याभूतलम् अजिनं वासः सर्वपरिग्रह भोगत्यागः कस्य सुखं न करोति विरागः
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते
योगरतो वा भोगरतो वा संगरतो वा संगविहीनः यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दक्येव
भज गोविन्दं भज गोविन्दं गोविन्दं
भगवद्गीता किञ्चिदधीता गङ्गा जललव कणिका पीता सकृदपि येन मुरारि समर्चा क्रियते तस्य यमेन न चर्चा
भज गोविन्दं भज गोविन्दं
जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् इह संसारे बहुदुस्तारे कृपया पारे पाहि मुरारे
भज गोविन्दं भज गोविन्दं
रथ्याचर्पट विरचितकन्थः पुण्यापुण्य विवर्जितपन्थः योगी योग नियोजितचित्तः रमते बालो मत्तव देव
भज गोविन्दं भज गोविन्दं
कस्त्वं कोऽहं कुतायातः कामे जननी को मे तातः इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम्
भज गोविन्दं भज गोविन्दं गोविन्दं
विष्णुः व्यर्थं कुप्यसि मय्यसहेष्णुः भवसमचित्तः सर्वत्र त्वं वाञ्छस्य चिराद्यदि विष्णुत्वं
भज गोविन्दं भज गोविन्दं
शत्रु मित्रे क्षेत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम्
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमाते
त्यक्त्वात्मानं पश्यति सोऽहम् आत्मज्ञानविहीना मूढाः ते पचन्ते नरकनिगूढाः
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते
सहस्रं ध्येयं श्रीपति रूपमजस्रं नेयं सज्जन संगे चित्तं देयं दीन जनाय च वित्तं
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते
सुखतः क्रियते रामाभोगः पश्चाद्धन्तशरीरे रोगः यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणं
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते
अनर्थं भावय नित्यं नास्ति तत् सुखलेश सत्यं पुत्रादपि धनभाजां भीतिः सर्वत्र रीतिः
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते
विचारं जाप्य समेत समाधिविधानं कुर्ववधानं महदवधानं
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते
चरणाम्बुज निर्भर भक्तः संसारादचिराद्भव मुक्तः सेन्द्रियमानस नियमादेवं द्रक्ष्यसि निज हृदयस्थं देवं
भज गोविन्दं भज गोविन्दं